गोविन्दं वन्दे गुणातीतं गोविन्दं मेकमक्षरम् अव्यक्तम् अव्ययम् व्यक्तम् गोपवेश विधायिनम् किशोरवयसं शान्तं गोपिकान्तं मनोहरं नवीन नीरदश्यामं कोटिकन्दर्पसुन्दरम् वृन्दावन वनाभ्यरणे रासमण्डलसंस्थितं रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे नारायणेशौ सम्भाष्य सौवास तदाज्ञया इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् भक्तिभर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् कृष्णं वन्दे गुणातीतं गोविन्दं मेकमक्षरम् अव्यक्तम् अव्ययं व्यक्तं गोपवेश विधायिनम् किशोरवयसं शान्तं गोपिकान्तं मनोहरं नवीन नीरदश्यामं कोटिकन्दर्पसुन्दरम् वृन्दावन वनाभ्यरणे रासमण्डलसंस्थितं रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे नारायणेशौ सम्भाष्य सौवास तदाज्ञया इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् भक्तिभर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् कृष्णं वन्दे गुणातीतं गोविन्दं मेकमक्षरम् अव्यक्तम् अव्ययं व्यक्तं गोपवेश विधायिनम् किशोरवयसं शान्तं गोपिकान्तं मनोहरं नवीन नीरदश्यामं कोटिकन्दर्पसुन्दरम् वृन्दावन वनाभ्यरणे रासमण्डलसंस्थितं रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे नारायणेशौ सम्भाष्य सौवास तदाज्ञया इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् भक्तिभर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् कृष्णं वन्दे गुणातीतं गोविन्दं मेकमक्षरम् अव्यक्तम् अव्ययं व्यक्तं गोपवेश विधायिनम्। किशोरवयसं शान्तं गोपिकान्तं मनोहरं नवीन नीरदश्यामं कोटिकन्दर्पसुन्दरम् वृन्दावन वनाभ्यरणे रासमण्डलसंस्थितं रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे नारायणेशौ सम्भाष्य सौवास तदाज्ञया इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् भक्ति भर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् कृष्णं वन्दे गुणातीतं गोविन्दं मेकमक्षरम् अव्यक्तम् अव्ययं व्यक्तं गोपवेशविधायिनम् किशोरवयसं शान्तं गोपिकान्तं मनोहरं नवीन नीरदश्यामं कोटिकन्दर्पसुन्दरम् वृन्दावन वनाभ्यरणे रासमण्डलसंस्थितं रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे नारायणेशौ सम्भाष्य सौवास तदाज्ञया इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् भक्ति भर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् कृष्णं वन्दे गुणातीतं गोविन्दं मेकमक्षरम् अव्यक्तम् अव्ययं व्यक्तं गोपवेशविधायिनम् किशोरवयसं शान्तं गोपिकान्तं मनोहरं नवीन नीरदश्यामं कोटिकन्दर्पसुन्दरम् वृन्दावन वनाभ्यरणे रासमण्डलसंस्थितं रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे नारायणेशौ सम्भाष्य सौवास तदाज्ञया इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् भक्ति भर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् कृष्णं वन्दे गुणातीतं गोविन्दं मेकमक्षरम् अव्यक्तम् अव्ययं व्यक्तं गोपवेशविधायिनम् किशोरवयसं शान्तं गोपिकान्तं मनोहरं नवीन नीरदश्यामं कोटिकन्दर्पसुन्दरम् वृन्दावन वनाभ्यरणे रासमण्डलसंस्थितं रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे नारायणेशौ सम्भाष्य सौवास तदाज्ञया इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् भक्तिभर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् कृष्णं वन्दे गुणातीतं गोविन्दं एकमक्षरम् अव्यक्तम् अव्ययं व्यक्तं गोपवेशविधायिनम् किशोरवयसं शान्तं गोपिकान्तं मनोहरं नवीन नीरदश्यामं कोटिकन्दर्पसुन्दरम् वृन्दावन वनाभ्यरणे रासमण्डलसंस्थितं रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे नारायणेशौ सम्भाष्य सौवास तदाज्ञया इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् भक्तिभर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् कृष्णं वन्दे गुणातीतं गोविन्दं एकमक्षरम् अव्यक्तम् अव्ययं व्यक्तं गोपवेशविधायिनम् किशोरवयसं शान्तं गोपिकान्तं मनोहरं नवीन नीरदश्यामं कोटिकन्दर्पसुन्दरम् वृन्दावन वनाभ्यरणे रासमण्डलसंस्थितं रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे नारायणेशौ सम्भाष्य सौवास तदाज्ञया इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् भक्तिभर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् कृष्णं वन्दे गुणातीतं गोविन्दं एकमक्षरम् अव्यक्तम् अव्ययं व्यक्तं गोपवेशविधायिनम् किशोरवयसं शान्तं गोपिकान्तं मनोहरं नवीन नीरदश्यामं कोटिकन्दर्पसुन्दरम् वृन्दावन वनाभ्यरणे रासमण्डलसंस्थितं रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे नारायणेशौ सम्भाष्य सौवास तदाज्ञया इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् भक्ति भर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् कृष्णं वन्दे गुणातीतं गोविन्दं मेकमक्षरम् अव्यक्तम् अव्ययं व्यक्तं गोपवेशविधायिनम् किशोरवयसं शान्तं गोपिकान्तं मनोहरं नवीन नीरदश्यामं कोटिकन्दर्पसुन्दरम् वृन्दावन वनाभ्यरणे रासमण्डलसंस्थितं रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे नारायणेशौ सम्भाष्य सौवास तदाज्ञया इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् भक्ति भर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम्